अस्तु, अद्यतन पाठे ओमांगोश्च इति सूत्रं पुनः पश्यामः। तत्र मयापि वेगेन पाठितम् इति ममापि एतदस्ति। ओमांगोश्च इत्यत्र पदद्वयं विद्यते, ओमांगोः च इति। ओमांगोः इत्यत्र सप्तमी द्विवचनम् अस्ति, च इति अव्ययमस्ति। इदानीं तत्र सूत्रार्थे लघुकौमुद्याम् ओमि आङि च आत् परे, इदानीम् एतस्य अन्वयं करणीयम्। ओमि आङि च आत् परे पररूपम् एकादेश स्यात् इति सूत्रार्थः। तस्य अन्वयकरणेन आत् परे कथम् अन्वयः करणीयः इति एकवारं पश्यामः। तत्र आत्परे ओमि आङि च पररूपम् एकादेश स्यात्। अत्र ओम च आङ् च ओमाङौ, तयोः ओमाङोः इतरेतर द्वन्द्वसमासः। अत्र आत् इति अवर्णात् इति अवर्णात् अकारस्य पञ्चमीविभक्तिः अवर्णात् इत्यर्थः। एवम् आत् इत्यत्र अकारस्य पञ्चमी विभक्तिः आत् अवर्णात् इति, ओमाङ्गोः इत्यत्र सप्तमी, तस्मिन् इति निर्दिष्टे पूर्वस्य, ओमि आनि च परे किं भवति, पररूपं भवति, पररूपं भवति इति पररूपम् इत्यत्र विधेयः। अत्र विधेयः पररूपम् इत्युक्ते पररूपं विधीयते, अनेन सूत्रेण पररूपं विधीयते। पररूपं नाम पूर्ववर्णः एकमस्ति, परवर्णः एकम् अस्ति, परस्यैव आदेशः। एकः पूर्वपरयोः इत्युक्ते पूर्वपरयोः पररूपम् आदेशः भवति। इदानीम् अष्टाध्याय्याम् ओमाङ्गोश्च इति सूत्रम् एकः पूर्वपरयोः इत्यत्र इत्यस्मिन् अधिकारे आगच्छति। अतः सूत्रार्थः एवं भवति, अवर्णात् ओमि आङि च परे पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति। अत्र दोषः अस्ति स्लैड् मध्ये, पररूपः इति लिखितम्। इदानीं प्रश्नः एवमस्ति, ओमि आङि इत्युक्ते किम्, तत्र किमपि विशेषः अस्ति वा इति प्रश्नः अस्ति। तत्र ओमि आङि इत्यत्र आङ् इति अव्ययम्, ओमपि एकम् अव्ययं भवति। ओमपि अव्ययं भवति। क्षम्यताम्, ओम् इति अव्ययमस्ति, आङ् इति उपसर्गः अस्ति, आकारः। आङ् इत्यत्र नकारः अस्ति, नकारः इत्वर्णः। तत्र नकारस्य हलन्त्यम् इति सूत्रेण कदाचित् लोपः सम्भवति, लोपः जायते, अतः आ इति भवति। आगच्छति इत्यत्र आङ् उपसर्गः अस्ति गम् धातोः आगच्छति इति अस्ति किल तत्र आङ् इति उपसर्गः अस्ति एषः एव आङ् इति उपसर्गः एव अस्मिन् सूत्रे निर्दिष्टः एवम् ओमि आङि ओम् इति एकम् अव्ययम् इदानीम् एतत् सूत्रं पररूपं पररूपस्य आदेशं विधास्यति इदानीं विधिसूत्रमपि अस्ति एतत् विधिसूत्रमस्ति यतः अत्र विधेयः पररूपमस्ति उदाहरणं किम् अस्ति इत्युक्ते शिवायोन्नमः तत्र ओं नमः शिवाय इत्यस्ति किल शिवायोन्नमः स एव उदाहरणम् अत्र इदानीं शिवाय ओं नमः इति अस्ति शिवाय इत्यत्र पर पूर्ववर्णः अकारः परवर्णः ओकारः सो अवर्णात् परे ओकारः अस्ति ओम् इत्यत्र ओकारः अस्ति ओम् तत्र ओकारः ओम् इत्यस्य अङ्गत्वेन अस्ति अतः ओम् ओमि परे इति अस्ति इदानीम् एतयोः स्थाने एकः पूर्वपरयोः इति अधिकारः अपि अस्ति ओम् इत्येव भवति एवं किम् अभवत् शिवाय ओम् नमः शिवायोन्नमः इति आगतम् अतः शिवायोन्नमः इत्यस्मिन् उदाहरणं स्पष्टम् अभवत् इदानीम् अपरम् उदाहरणं किम् अस्ति इत्युक्ते शिव एहि इति स्थिते इति मूले अस्ति इदानीं शिव एहि इत्यत्र एहि शब्दः कथं निष्पन्नः इति अस्माभिः द्रष्टव्यं भवति एहि इत्यत्र आ इहि इति रूपम् तस्य अर्थः कः शिव आ इहि हे शिव अत्र आगच्छ इति तत्र आह्वानं वा सम्बोधनं वा भवति हे शिव आ इहि इत्यत्र इदानीम् आ इहि इति भवति आ इहि इति एव एहि इति गुणसन्धिं प्राप्नोति तद् वयं प्रथमम् अङ्गीकुर्मः शिव एहि इति स्थिते तत् तस्य प्राक्तन स्वरूपं शिव एहि इति रूपप्राप्तिपूर्वं शिव आ इहि इति रूपम् आसीत् अत्र आ इहि इत्यनयोः आ इत्यत्र आङ् उपसर्गः आसीत् आ इहि इत्यनयोः एहि इति गुणसन्धिः अभवत् इदानीं प्रश्नः शिव एहि इत्यत्र अस्माभिः पररूपम् इष्टं शिवेहि इति रूपम् इष्टम् पररूपम् आगच्छति चेदेव शिवेहि इति भवति इदानीं पररूपम् ओमाङ्गोश्च इति सूत्रस्य प्रवृत्तिः अत्र भवति वा ओमाङ्गोश्च इति सूत्रं किं वदति अकारात् पुरतः ओमि इत्युक्ते ओमि आङि च परे तदा एव भवति अत्र तु आङ् नास्ति अत्र एकारः अस्ति एकारे आङ्त्वं कथम् एकारे आङ्त्वधर्मः कथम् आगतम् इति प्रश्नः प्रश्नस्य अवगमनम् अभवत् वा एकारे आङ्त्वधर्मः अस्ति चेत् तदा एव आङ्त्वं नाम इदानीं मनुष्ये मनुष्यत्वधर्मः अस्ति चेत् सः मनुष्यः इति उच्यते एवं संस्कृतज्ञः इत्यस्य लक्षणं किमपि अस्ति सः सदा संस्कृतज्ञः नाम संस्कृते प्रीतिः अस्ति संस्कृते सम्भाषणं करोति एवं संस्कृतज्ञत्वलक्षणं संस्कृतज्ञे अस्तीति कारणतः सः संस्कृतज्ञः भवति इदानीम् अन्यः कोऽपि आगतवान् सः संस्कृतज्ञः उत न इति परीक्षितुं वयं पूर्वम् अस्माकम् अनुभवः विद्यते संस्कृतज्ञः नाम कीदृशः भवति इति तस्य अनुभवस्य दृष्ट्या वयम् अन्यं पुरुषं तोलयामः सः कीदृशः अस्ति संस्कृतज्ञत्वलक्षणम् एतस्मिन् मनुष्ये अस्ति वा इति वयं दृष्ट्वा मनसि किञ्चित् विचारान् स्थापयित्वा अनन्तरं वयं निश्चयम् अस्माभिः निश्चय क्रियते अस्तु संस्कृतज्ञत्वलक्षणानि एतस्मिन् मनुष्ये अस्ति अतः सः संस्कृतज्ञः इति अस्माभिः निश्चीयते एवं तदा किं क्रियते यदा संस्कृतज्ञः इति निश्चीयते तदा वयं संस्कृतज्ञः यदि अस्माकं पुरतः सम्भवति कथं व्यवहारः अस्माभिः क्रियते झटिति वयं संस्कृतभाषायां सम्भाषणम् आरम्भं कुर्मः संस्कृतभाषायामेव भाषणं कुर्मः स एव क्रियते अस्माभिः इदानीं यदि वयं जानीमः एतादृशधर्मः तस्मिन् पुरुषे अस्ति इति तदा तादृशव्यवहारं कुर्मः इदानीम् अत्रापि स एव लोकन्यायः अस्माभिः आश्रयणीयः एहि इत्यत्र अस्माभिः पररूपं यदि करणीयं चेत् अस्माभिः ज्ञातव्यं भवति अत्र आन्त्वं वा ओम्त्वं वा भवेत् ओम्त्वं तु नास्ति इदानीम् आ इहि इत्यत्र आन्त्वं पूर्वमासीत् इति अस्माकं मनसि अस्ति पूर्वम् आन्त्वम् आसीत् इदानीं तु नास्ति एहि इत्यत्र इदानीं किं करणीयम् इति प्रश्नः इदानीं एषः संस्कृतज्ञः यदि कम्प्यूटर् इदानीं कम्प्यूटर् अपि जानाति सः कम्प्यूटर् सैन्स् इञ्जिनियर् अस्ति सः संस्कृतमपि जानाति कम्प्यूटर् विषयमपि जानाति इत्युक्ते तदा अस्माभिः किं क्रियते कदाचित् कम्प्यूटर् आफीस् मध्ये तस्य कम्प्यूटर् तन्त्रज्ञः तन्त्रज्ञेन सह यथा व्यवहारः करणीयः तथा अस्माभिः व्यवहारः क्रियते कम्प्यूटर् तन्त्रज्ञस्य कृते यत् कार्यं कर्तव्यं तत्सर्वम् अस्माभिः कार्यालये कम्प्यूटर् तन्त्रज्ञ समं तं दृष्ट्वा तस्मै तादृशव्यवहारः क्रियते यदा स एव तन्त्रज्ञः संस्कृतभारतीं प्रति आगच्छति वयम् अस्माभिः किं क्रियते सः संस्कृतज्ञः इति ज्ञात्वा अस्माभिः संस्कृतसम्भाषणं शास्त्रविषयं भवद्भिः एतत् पुस्तकं पठितं वा एतत् कृतं वा इत्यादि प्रश्नाः पृच्छन्ते अस्माभिः अस्माभिः तदा यत्र व्यवहारः यत्र तस्य धर्मं दृष्ट्वा अस्माभिः क्रियते इदानीम् अत्रापि एवमेव अस्ति एहि इत्यत्र आन्त्वबुद्धिः अस्माभिः एहि इत्यत्र आन्त्वबुद्धिः पूर्वमस्ति स इदानीम् अस्ति वा यदि अस्ति चेत् वयं पररूपं कुर्मः यदि नास्ति चेत् पररूपम् अस्माभिः नैव कर्तुं शक्यते अस्माभिः शिवेहि इति रूपस्तु इष्टः इदानीं शिवेहि इत्यत्र एकारस्य पररूपं कर्तुम् आन्त्वबुद्धिः कथम् आनेतव्यम् इति प्रश्नः तदा अग्रिमसूत्रम् अस्माकम् उपकारं करोति ओम इदानीं तस्यैव शिव आहि तदा आन्त्वबुद्धिः विषये अन्तादिवच्च इति सूत्रमस्ति अन्तादिवच्च इति एकं सूत्रं किं करोति अन्तादिवत् इति अव्ययं पदं च इत्यपि अव्ययं पदम् इदानीं योऽयम् एकादेशः सः पूर्वस्य अन्तवत् परस्य आदिवत् तत् स्लैड् मया इतोपि परिवर्तनं न कृतं पूर्वस्य अन्तवत् मूले किम् अस्ति तत् पश्यन्तु योऽयम् एकादेशः सः पूर्वस्य अन्तवत् परस्य आदिवत् स्यात् इति सूत्रं विद्यते अतिदेशसूत्रम् इति कथ्यते अतिदेश सूत्रम नाम किम्? अस्माभिः षड्विध सूत्राणि अधीतानि, संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशोऽधिकारश्च षड्विधं सूत्रमुच्यते। अतिदेशं नाम अतस्मिन् तद्बुद्धिः, तत्र वेदान्ते यथा उच्यते तथा। इदानीं अतिदेशः नाम धर्मस्य आरोपणं, धर्मः नाम क्वालिटि। अतिदेशः क्रियते अस्माभिः, अस्माभिः उच्यते तत्र मया क्रिकेट् क्रीडायाम् उदाहरणं दत्तं ह्यस्तनकक्षायां। तत्र चेतेश्वर पूजारा इति एकः अस्ति, सः राहुल् द्रविड् इव अस्ति इति सर्वे, राहुल् द्रविड् वत् अस्ति इव अस्ति इति सर्वे वदन्ति। एवं राहुल् द्रविड् मध्ये ये ये धर्माः सन्ति इत्युक्ते क्रिकेट् क्रीडाधर्माः, तादृशक्रीडा धर्माः एतस्मिन्नपि सन्ति इति कारणतः वयं तत्र अतिदेशं कुर्मः, आरोपणं कुर्मः। एवमपि व्याकरणे अपि भवति। इदानीम् अन्तादिवच्च सूत्रं किं वदति? एकादेशः अस्माभिः यदा यदा क्रियते, एकादेशः क्रियते, एकादेशः नाम किं? एकः पूर्वपरयोः इति अधिकारे विद्यमानाः सर्वे संहिता संहिताधिकारे सूत्राणि यानि यानि सन्ति ते एव तत्र एकादेशः इति उच्यन्ते। इदानीं गुणसन्धिः अस्ति, तत्र अकार इकारस्थाने एकारः विद्यते। एवमेव एकादेशः क्रियते, यत्र यत्र एकादेशः तत्र तत्र एकः पूर्वपरयोः इति अधिकारः विद्यते इति अस्माभिः ज्ञेयं वैयाकरणैः। एकादेशः नाम किम्? अस्माकं कृते एकः पूर्वपरयोः इति अधिकारः यत्र यत्र अधिकारस्य सञ्चारः यत्र यत्र भवति स एव एकादेशः इति उच्यते। इदानीम् अन्तादिवच्च इति सूत्रम्, अतिदेशसूत्रं किं वदति? यत्र यत्र एकादेशः भवति तत्र तत्र पूर्वस्य अन्तवद्भावः, इट् विल् हाव् 50% आफ् पूर्ववर्णास् क्वालिटीस् अण्ड् 50% आफ् परवर्णास् क्वालिटीस्। पूर्व योऽयम् एकादेशः सः पूर्वस्य अन्तवत् परस्य आदिवत् भवति। यथा तत्र अर्धनारीश्वररूपं तत्र हरिहरपुरा इति अस्ति, तत्र कर्णाटकदेशे दावण्गेरे समीपे हरिहरपुरा इति अस्ति, हरिहर इति उच्यते। हरिहरक्षेत्रे तत्र हरिरूपं हररूपं च एकस्मिन् विग्रहे एव अस्ति। एवं हरिहर हरिहररूपम् उच्यते। इव इदानीं तादृश हरिहररूपं हरिहररूपमिव भवति अन्त तत्र। इदानीं शिवेहि इत्यत्र एकः पूर्वपरयोः शिवेहि इत्यत्र तत्र पश्यामः। इदानीम् अन्तादिवच्च इति सूत्रस्य विषये एकम् उदाहरणमस्ति, उप इन्द्रः इत्यत्र आद्गुणः इति सूत्रेण अकारः अकार इकारयोः स्थाने एकारः अस्ति। इदानीम् एकारत्व एकारे एकारे एकारः आदेशः, एकारस्य योऽयम् एकादेशः, योऽयम् एकादेशः एकारः पूर्वस्य आदिवत् पूर्वस्य अन्तवत्, एवं पूर्वस्य अन्तवत् नाम अकारवत्, परस्य आदिवत्, परस्य आदिवत् नाम इन्द्रशब्दस्य इकारवत्, योऽयम् एकादेशः एकारः पूर्वस्य अन्तवत्, उप इति शब्दस्य अन्तवत् अकारवत्, परस्य आदिवत् इन्द्रः इत्यत्र इकारवत् भवति। एकारः अकारवदपि भवति इकारवदपि भवति। एवम् अकारे विद्यमानानि कार्याणि इकारे विद्यमानानि कार्याणि कदाचित् एकारे अपि कर्तुं शक्यते इति भावः। इदानीं यथा संस्कृतज्ञः अस्ति चेत्, संस्कृतज्ञः अस्ति सः कम्प्यूटर् इञ्जिनियर् अपि अस्ति, यदा संस्कृतज्ञः यदि अस्ति इति वयं जानीमः, संस्कृतज्ञत्वं तस्य अस्ति इति जानीमः, कदाचित् संस्कृते व्यवहारमपि कुर्मः तं दृष्ट्वा, कम्प्यूटर् अपि कम्प्यूटर् जनापि स इति जानीमश्चेत् कम्प्यूटर् व्यवहारमपि कुर्मः कदाचित्। एवं तस्मिन् मनुष्ये उभयधर्मम् अस्ति, अथ अत्रापि एकारे अकारधर्मः अपि अस्ति, इकारधर्मः अपि अस्ति। कथमस्ति इति अन्तादिवद्भावेन अस्ति। कथमस्ति इत्युक्ते एतद् अन्तादिवद्भावेन अस्ति। एवं शिव एहि इत्यत्रापि, शिव एहि इत्यत्रापि आन्तधर्मः कथम् आगतम् इति प्रश्नः अस्माकम्। अत्र आन्तधर्मः, आन्तधर्मः नाम एकारे आन्तधर्मः, पूर्वं तत्र आकारः आसीत्, इकारः आसीत्। एकारे इदानीं धर्मद्वयं विद्यते, आकारधर्मः अपि विद्यते, इकारधर्मः अपि विद्यते। इदानीम् आकारधर्मं स्वीकृत्य आत्मा अस्माभिः किं क्रियते? ओमाङ्गोश्च इति सूत्रं प्रवर्तते, अस्माभिः प्रवर्त्यते। तत्र अत्र एकारे आकारः अस्ति इति अस्माभिः मनसि निधाय इदानीम् अस्माभिः ओमाङ्गोश्च इति सूत्रं सञ्चाल्यते। तदा किं भवति? तत्र एकारे आङ्क्त्वमस्ति इति मनसि भवति। शिव ये इत्यत्र आकारः इकारः अस्ति, एवं ये आकारः अस्ति इति कारणतः आङ्क्त्वमस्ति। आङ्क्त्वं यदा आङ्क्त्वं भवति चेत् पररूपं भवति। पररूपं किम् अस्ति? एकारः। एकारः एव शिवेः इति रूपेण आगच्छति इति अन्तादिवच्च इति सूत्रस्य सहायेनैव शिवेः इति रूपस्य इष्टसिद्धिः भवति। तदेव अत्र लिख्यते, इत्थमेव शिवैः इत्यत्र ये इति वर्णः एकादेशः अस्ति। अयम् एकादेशः पूर्ववर्तिनः वर्णसमुदायस्य अन्तादिवत् स्यात्। पूर्ववर्तिनः वर्णसमुदायस्य आम् इति वर्तते, एतस्य अन्तः अपि आ इति वर्तते। अतः प्रकृतसूत्रेण अयम् एकारः आम् इत्यस्य सदृशः अस्ति। अर्थात् यत्कार्यम् आम् इत्यस्य परे भवति तदेव कार्यम् ए इति वर्णे अपि भवति। आम् इत्यस्य परे किं कार्यं भवति? ओमाङ्गोश्च इति सूत्रेण पररूपं भवति। अतः प्रकृतसूत्रस्य साहाय्येन अयम् एकादेशः ए इति वर्णे परे सत्यपि भवति। अतः शिवेः इति रूपसिद्धिः भवति। इत्थम् ओमाङ्गोश्च इति सूत्रस्य प्रवृत्त्यर्थम् अस्माभिः अन्ताविवच्च इति अतिदेशसूत्रस्य साहाय्येन वकारोत्तरवर्तिनः आकारस्य परस्य एकारस्य स्थाने पररूपम् एकादेशम् अस्माभिः क्रियते। अवगतं वा? सम्यक् अवगतं वा? केचन उक्तवन्तः तत्र पुनः पुनरावर्तनं कर्तव्यम् इति। अस्तु, इदानीं प्रायः सम्यक् अवगतं। तस्मिन् दिने किञ्चित् वेगेन पाठितवान् अतः एवम् अभवत्। एवम् अन्ते अस्माभिः किं स्मर्तव्यम्? ओमाङ्गोश्च इति सूत्रं वृद्धिरेचि अकस्वर्णीयदीर्घः इत्यनयोः अपवादः अस्ति इति स्मर्तव्यम्। इदानीम् अस्माभिः एकः प्रश्नः पुनः क्रियते, तद् अत्र स्लैड् मध्ये अस्ति, अहम् एकवारं पुनः दर्शयामि। आङ् इत्यस्य उदाहरणम् इदानीं प्रश्नद्वयं विद्यते अस्माभिः। शिव आ इहि इत्यत्र आकार इकारयोः गुणः अपि भवितुमर्हति। शिव आ इत्यत्र अकार आकारमध्ये सवर्णदीर्घोऽपि कर्तुं शक्यते। इदानीम् अस्माभिः किं क्रियते? सवर्णदीर्घगुणयोः मध्ये सवर्णदीर्घगुणयोः मध्ये अस्माभिः प्रथमं किं करणीयम्? आ एहि इत्यत्र गुणसन्धिः करणीया वा, शिव आ इत्यत्र अकस्तवर्णे दीर्घः करणीयो वा? यदि अकस्तवर्णे दीर्घः क्रियते तर्हि शिवा इति भवति, तदा ओमांगोस्य इति सूत्रस्य प्रवृत्तिरेव नास्ति, यतोहि आकारस्य परतः ओमांगोस्य इति सूत्रस्य प्रवृत्तिः न भवति। अतः इदानीं प्रश्नः स एव भवति, तदा उच्यते गुणः गुणसन्धिः किं भवति, गुणसन्धिः अल्पा तत्र अन्तरङ्गकार्यं भवति, उपसर्गधातुकार्यम् अन्तरङ्गकार्यम् इण्टर्नल् अन्तरङ्गकार्यं भवति, अन्तरङ्गे कार्ये कर्तव्ये बहिरङ्गम् असिद्धम् इत्युक्ते यदा अन्तरङ्गं कार्यं कर्तव्यं भवति तदा अन्तरङ्गस्यैव प्रामाण्यं प्रथमं करणीयम्। इदानीम् अन्तरङ्गकार्यम् उपसर्गधातुकार्यम् अन्तरङ्गकार्यं शिव आ इत्यत्र शिव इति पृथक् शब्दः, आङ् इति पृथक् शब्दः, उपसर्गधातु यथा भवति तादृशसम्बन्धः नास्ति, अतः अन्तरङ्गकार्यमेव प्रथमं क्रियते, आ इहि इत्यत्र गुणः एव प्रथमं क्रियते, न तु शिव आ इत्यत्र सवर्णदीर्घः। यदा आ इहि इत्यत्र गुणः क्रियते तदा एव शिव एहि इति प्राप्तिः भवति, तदा एव शिवेहि इति रूपसिद्धिः भवति। तत्र मीनाक्षी भगिनी पृष्टवती किं पृच्छति, इन् दिस् वर्ड् अन्तादिवच्च सूत्रमेव पर्यन्तम्, इन् दिस् वर्ड् अन्तादिवच्च सूत्रम् एव पर्यन्तम्, एव पर्यन्तं नाम प्रश्नस्य अवगमनं कृपया न अभवत्। पर्याप्तमिति एव पर्याप्तम् अस्ति, कृपया पुनः न अवगतम्। ओ फर् शिव एहि इत्यत्र अन्तादिवत् सूत्रमेव पर्याप्तं, वै वै दिस् सूत्र हेज़ बीन एडेड। हाँ शिव एक वाई दिस अनदर सूत्र हेज़ बीन एडेड। हाँ दैट इज व्हाट, इफ दिस सूत्र अंतादिवच्च सूत्र वाज नॉट देयर वी कुड नॉट हैव यूज्ड ओमांगोश्च, वी कुड नॉट हैव अप्लाइड ओमांगोश्च रूल हियर, दैट इज व्हाई अंतादिवच्च वाज रिक्वायर्ड। But without applying Omangostha, if you ask the reverse, Antadivatsa is enough? No. Antadivatsa is not a Vidhi Sutram. We should remember that Antadivatsa is an Atidesha Sutram. It says, Yatra Yatra Ekadeshaha Sambhavati, Tatra Tatra Parasya Purvasya Antavat Parasya Adivat Bhavati Adeshaha Adeshasya Samanya Dharmam Vakshyati Vadati. अन्तादिवच्च इति सूत्रम् अन्तादिवच्च इति एकादेशस्य विषये किञ्चित् वदति, यत्र यत्र एकादेशः सम्भवति तत्र तत्र एवम् एकादेशस्य एकादेशस्थवर्णः, एकादेशः नाम वर्णः, यः वर्णः एकादेशरूपेण आगतः तस्य धर्मः कीदृशः भवति इति वदति। इदानीं सोडियम् क्लोरैड् NaCl इति भवति, सोडियम् क्लोरैड् मध्ये इदानीं वाट् दिस् अन्ताधिवच्च सूत्र इस् टेलिङ्ग्, वेर् एवर् देर् इस् अ काम्पौण्ड् विच् इस् हेविङ्ग् टु एलिमेण्ट्स् द काम्पौण्ड् विल् हेव् पार्शियल् प्रापर्टीस् आफ् बोत् दि एलिमेण्ट्स्, दट् इस् इट् विल् हेव् सोडियम् क्लोरैड् विल् हेव् प्रापर्टीस् आफ् सोडियम् आल्सो एण्ड् क्लोरैड् आल्सो, दिस् इस् अ नियम Atidesha. Atidesha means it is telling new compound, it is putting the properties of sodium and chloride in the new compound sodium chloride. And it is telling sodium chloride will have sodium dharma, it will also have chloride dharma, and it will also have sodium chloride dharma. Sodium chloride will have sodium chloride dharma, that everybody knows. Sodium chloride will have sodium dharma and chloride dharma, that is what this sutra is telling. Antadivacha iti sutram kim vadati yoyam ekadeshaha saha ekadeshaha purvasya antavat parasya adivat bhavati evam antadivat bhavaha asti ekadeshamadye iti samanya atidesham krutva kim atidishyate atra purvasya antavat bhavaha parasya adivat bhavaha atidishyate ataha antadivacha iti vidisutram nasti. Vidisutram kim asti shivayehi ityatra, shivayehi ityatra vidisutram tu omangoscha iti tatra yada yehi ityatra yekare yada antva dharmaha agataha tada asmabhi kim kriyate antve krite antve vidyamane kim kim karyam sambhavati iti asmabhi drishyate. Antve yadi antvam asti tada akarasya purataha antvam yadi bhavati tada tat kim kriyate omangoscha iti pararupam kriyate evam karotu iti tatra vyavastha evam vidya. Idanim avagatam va? अस्तु. एवं अत्र अन्तादिवच्च इति एवं तत्र शिव एयि इत्यत्र अन्तरङ्गत्वात् गुणः एव आयि इत्यत्र गुणस्यैव प्रवृत्तिः. एतावदेव अस्ति अस्मिन् अस्यां कक्षायाम्. अग्रिमकक्षायाम् इतोपि किञ्चित् पठामः. आकर्षवर्णदीर्घः इत्यादि विषये पठामः. अग्रिमकक्षाद्वयं वा त्रयं वा किञ्चित् प्रधानविषयाः आगच्छन्ति. तत्र गीतविषये अनेकादित्वविषये इत्यादिविषयाः आगच्छन्ति. कृपया सर्वैः भवितव्यम् इति मम प्रार्थना. पुनः अग्रिमबुधवासरे कक्षा न भविष्यति, यतोहि अहं नगरान्तरं गमिष्यामि. अग्रिमशुक्रवासरे एव पाठः. ततः पूर्वं तत्र कक्षाद्वयस्य रेकार्डिङ्ग् मया न स्थापितम् इति अहं तत् स्थापयामि. सप्तदशकक्षायां तत्र 17th क्लास् रेकार्डिङ्ग् किम् अभवत् तस्मिन् दिने बहु डिस्टर्बेन्स् आसीत्. तस्मिन् रेकार्डिङ्ग् मध्ये अपि बहु डिस्टर्बेन्स् अस्ति. तदेव अहं पश्यामि, यदि स्थापनीयं चेत् स्थापयामि, नो चेत् तत्र रेकार्डिङ्ग् नास्ति इत्येवं मेल् आगच्छति. अहं यथामति सप्तदशकक्षायां यद्यद् मया उक्तं तत्सर्वम् अष्टादशकक्षायामपि पुनः अहम् उक्तवान्. अतः सप्तदशकक्षायाः रेकार्डिङ्ग् यदि नास्ति तर्हि चिन्ता न करणीया, यतोहि अष्टादशकक्षायां सर्वम् अहं पुनरावर्तनं कृतवान्. सर्वम् एकैक पायिण्ट् अपि सर्वं पुनरावर्तनं मया कृतं, तदहं जानामि. अतः प्रयत्नं करोमि. सप्तदशमध्ये किञ्चित् डिस्टर्बेन्स् अस्ति, तत् फैल् करप्टेड् अस्ति, पुनः प्रयत्नं करोमि. अष्टादश नवदश सर्वं स्थापयामि. अद्यपर्यन्तं यद्यदस्ति सर्वं स्थापयामि. सप्तदश आडियो मध्ये क्लेशः अस्ति, अतः यदि शक्यते चेत् स्थापयामि, नो चेत् केवलं स्लैड् स्थापयामि. तत्र अष्टादश पाठं आडियो यदा भवन्तः शृण्वन्ति तदा एव ज्ञायते सर्वं पुनरावर्तितं सर्वं इति आवर्तितमेव सर्वं इति. अस्तु. येनाक्षरसमां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः. येन वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुखरीं नत्वा सरस्वतीं देवीं शुभ्रां पुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. धन्यवादाः. राम 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 सर्वेभ्यः. शुभरात्रि. Thank you.